Om Sivaya Namah. Dear listeners of Shaivam.org, the next program is Purana Parayanam. In this, you are about to listen Skanda Mahapuranam. The title is Maheshwara Kandam, Part 3, Purvardham. Thank you. Om Sivaya Namah.
Dhasaptamodhyayah Parvatyuvacha Kathamagnimayam Lingam अभिगम्यमभूद्भुवि प्राणिनामपि सर्वेषाम् उपशान्तिम् कथम् गतः तीर्थानामुद्भवपुण्यात् कथम् चारुणपर्वतात् उपसंमृतसर्वाङ्गः कथम् वा वदमेचलः गौतम उवाच कृते त्वग्निमयः शैलः त्रेतायाम् मणिपर्वतः द्वापरे हाटकगिरिः कलौ मरकताचलः बहुयोजनपर्यन्तम् कृते वह्निमये स्थिते बहिः प्रदक्षिणम् चक्रुः प्रशाम्यति महर्षयः शनैः शान्तोरुणाद्रीशः श्रीमानभ्यर्थितः सुरैः लोकगुप्त्यर्थमत्यर्थम् उपशान्तोरुणाचलः कथ गौरीमुनिम् प्राह कथम् शान्तोरुणाचलः कथम् वा प्रार्थयामासुः देवेशम् त्रिदशायिमम् इति तस्यावच श्रुत्वा गौतमस्त्वभ्यभाषत प्रशस्त्य भक्तिमतुलाम् तस्यास्तत्त्वार्थवेदिनीम् अग्निरूपम् पुरा शैलम् आसादयितुमम् क्षमाः पुरा सुरास्तुतिम् चक्रुः अभ्यर्चक्रतु सम्भवैः भगवन्नरुणाद्रीश सर्वलोकहितावः अग्निरूपोऽपि संशान्तः प्रकाशस्वमहीतले असौ यस्ताम्रो अरुणवुत बभ्रुः सुमङ्गलः इति त्वाम् सकला वेदाः स्तुवन्ति शिव विग्रहम् नमस्ताम्रायारुणाय शिवाय परमात्मने वेदवेद्यस्वरूपाय सोमाय सुखरूपिणे तद्रूपमखिलम् देव जगदेतच्चराचरम् निधानमिव ते रूपम् देवानामिदमीक्ष्यते स्पर्शताम् च पयोदानाम् निर्झराणाम् च भूयसाम् सलिलोपाय संहारो युक्तस्ते युगसंक्षये अग्नेरापः समुद्भूताः त्वत्तो हि परमात्मनः विश्वसृष्टिम् वितन्वन्ति विचितगुणवैभवात् पीतो भव महादेव शोणाचलकृपानिधे सर्वेषामपि जीवानाम् अभिगम्यो भव प्रभो इति स्तुतः सुरैः सर्वैः राजतेर्भक्तवत्सलः सद्य शीतलताम् गच्छन् अभिगम्यो भवत्प्रभुः प्रावर्तन्त पुनर्नद्यो निर्झराश्च बहूदकाः वर्षतामपि मेघानाम् न जग्राह जलम् बहु तथापि तरुणार्कोद्यत् कालाग्निशतकोटिभिः समानदीप्तिरभजत् जीवानामभिगम्यताम् सृज्य विश्वसलिलम् नदीश्च रसविक्षरैः सम्पूर्यः सकलैर्देवः सर्वदा सम्प्रकाशते तीर्थानि तानि तान्यासन् परप्रार्थनावशत् दिक्पालानाम् सुराणाम् च महर्षीणाम् महात्मनाम् ब्रह्मोवाच इति तस्य वच श्रुत्वा गौरीकुतुकसंयुता तीर्थानामद्भुतम् सर्वम् श्रोतुम् समुपचक्रमे पार्वत्युवाच तानि तीर्थानि जातानि शोणाद्रे लोकगुप्तये भगवन् ब्रूहि सकलम् तीर्थानामद्भुतम् मम तस्यावच शृण्वन् गिरिशात् संश्रुतम् पुरा तीर्थानामद्भुतम् सर्वम् व्याख्यातुमुपचक्रमे गौतम उवाच इन्द्रनाम महातीर्थम् इन्द्रभागे समुत्थितम् तत्र स्नात्वा पुरोशक्रो ब्रह्महत्याम् व्यपोहयत् ब्रह्मतीर्थम् पुनर्दिव्यम् अग्निकोणे समुत्थितम् परस्त्रीसङ्गमात् पापम् वह्निस्नात्वा त्रचात्यजत् नाम्यम् नाम महातीर्थम् यमभागे विचृम्भते अत्र स्नात्वा यमोत्याक्षीत् भयम् ब्रह्मास्त्रसम्भवम् नैऋतम् तु महातीर्थम् नैऋत्याम् दिशि शोभते भूतवेतालविजयम् तत्र स्नात्वार्षयो गताः पश्चिमे वारुणम् तीर्थम् दिग्भागे च प्रकाशते शल्यकोशम् पुरा लेभे स्नात्वात्र वरुणो निजम् वायव्ये वायवीयम् च तीर्थमत्र प्रकाशते तत्र स्नात्वा ययौ वायुः जगत्प्राणत्ववैभवम् उत्तरे चात्र दिग्भागे सोमतीर्थमिति स्मृतम् तत्र स्नात्वा पुरा सोमो यक्ष्मरोगादमुञ्चत ऐशाने चात्र दिग्भागे विष्णुतीर्थमिति स्मृतम् तत्र स्नात्वा पुरा विष्णुः शीर्याम् च सह सङ्गतः मार्कण्डेयः पुरा देवी प्रार्थयामास शङ्करम् सदाशिव महादेव देवदेव जगत्पते बहूनामिह तीर्थानाम् एकत्र स्यात् समागमः केनोपायेन भगवन् कृपया वद शङ्कर इति तस्य वचः श्रुत्वा देवदेव उमापतिः उपायम् दर्शयामास मुनये प्रीतमानसः महेश्वर उवाच तदोपहारवेलायाम् सर्वतीर्थसमुच्चयः सन्निधिम् मम सम्प्राप्तः सेवते गूढरूपतः नान्यदन्वेषणीयन्ते तीर्थमत्र महामुने ममोपहारवेलायाम् दृश्यते तीर्थसञ्चयः अस्माद्भक्तियुतैर्नित्यम् सर्वतीर्थसमागमः मुनिभिश्च सुरैः सर्वैः नैवेद्यान्ते विलोक्यताम् हि देवि पुरा देवो मार्कण्डेयाय शङ्करः उपादिशदमीयात्मा तीर्थसन्दर्शनक्रमम् गौतम उवाच सर्वाण्यपि च पुण्यानि तीर्थानि शिवसन्निधौ सदोपहारवेलायाम् दृश्यानि किल मानवैः तम् तीर्थम् तपो वेदाः यज्ञाश्च नियमादयः योगाश्च शोणशैलेशा दर्शनादृष्टसञ्चराः शम्यवाक्यम् मुनिपुङ्गवस्य प्रसेदुषी पर्वतराजपुत्री अवोचत् अत्यद्भुतमेतत् त्रत्वयोपदिष्टम् भुवि तीर्थजालम् अहङ्कृतार्थातपताम् वरिष्ठ त्वत्सङ्गमात् सम्प्रति तीर्थजालम् आप्ता नमस्तेऽस्तु तपो विशेषम् शिवोऽपि मेऽत्रादिशदेव कर्तुम् कथम् गिरीश पुनरत्र देवः स्फुरन्महावह्निवपुर्धरोऽपि प्रशान्तरूपः परमेश्वरोऽयम् अभ्यर्चनीयो भुविमर्त्यवर्गैः इति सप्तमोऽध्यायः अथ अष्टमोऽध्यायः गौतम उवाच शृणु देवि पुरा वृत्तम् कैलासे मेरुधन्विना आदिष्टस्तीर्थयात्रार्थम् अहम् लिङ्गानि वीक्षितुम् रुद्रक्षेत्रे च केदारे तथा बदरिकाश्रमे काश्याम् पुण्येषु देशेषु तथा श्रीपर्वते शिवे काञ्ची मुख्यासु पुण्यासु पुरीष्वप्यगमं तदा ऋषिभिर्विबुधैः सार्थैः गणैर्योगिभिरुत्तमैः स्थापितानि च लिङ्गानि स्वयम्भूनि च दृष्टवान् तत्र तत्र महाभागे तीर्थानि शिवसन्निधौ सेवमानः स शिष्योऽहम् पर्यटन् पृथिवीमिमाम् एवम् तीर्थानि सर्वाणि गाहमानो व्रतान्वितः अपांसि यज्ञकर्माणि कुर्वन् भूमिम् समाचरन् शिवस्मरणसंयुक्तः शिवलिङ्गानि सन्नमन् सर्वाणि भुवि पुण्यानि देशमेतमुपाश्रयम् अत्र देवम् महादेवम् अविकेशन् त्रयम्बकम् अरुणाद्रिरिति ख्यातम् पर्वतम् लिङ्गमैक्षिषि अत्र सिद्धा महात्मानो मुनयश्च दृढव्रताः कन्दमूलफलाहारा दृष्टा शोणाद्रिसेवकाः अस्तौ शमादिमम् लिङ्गम् अरुणाद्रिमयम् महत् आद्येन ब्रह्मणा पूर्वम् अर्चितम् दिव्यचक्षुषा असौ यस्ताम्रो अरुणवुत बभ्रुस्सु मङ्गलः इति वेदास्तुवन्ति त्वाम् अरुणाद्रीश सन्ततम् नमस्ताम्राय चारुणाय शिवाय परमात्मने सर्ववेदस्वरूपाय नित्यायामृतमूर्तये कालाय करुणार्द्राय दृष्टिपेयामृताब्धये तवात्सल्यपूर्णाय पुण्याय पुरबेधिने दर्शनम् तव देवेश सर्वधर्मफलप्रदम् भुवि लब्धवताम् भूयो नान्यत्कार्यम् तपः क्वचित् भवता कर्म भूरेश वर्ततेऽद्य निरोधिता प्रार्थयन्ते स्वयम् वासान् देवाश्चात्र त्वदाश्रये कालसङ्ग्रह सञ्जातम् फलम् लब्धम् मया अधुना अन्यत्कृतम् तपः सर्वम् त्वद्दर्शनफलम् मम ईदृशम् तव देवेश रूपमत्यद्भुतोदयम् एकमद्रिमयम् लिङ्गम् न कचिद्दृष्टवान् भुवि सूर्येन्द्वग्निषु संयुक्त कोणत्रयमनोहरम् त्रिमूर्तिरूपदेवेश दृश्यते ते वपुर्महत् शक्तित्रयस्वरूपेण कालत्रयविधानकम् त्रिवेदात्मम् त्रिकोणाङ्गम् लिङ्गम् ते दृष्टमद्भुतम् त्रैलोक्यरक्षणार्थाय विततम् रूपमास्थितः दृश्यते वसुधा भागे शोणाद्रिरिति विश्रुतः अजानताम् च मर्त्याणाम् समालोकनमात्रतः वितरत्यखिलान् भोगान् याजकरुणानिधिः अर्चया रहितम् लिङ्गम् यम् शून्यमुदाहृतम् इदम् तु पूजितम् देवैः सदा सर्ववरप्रदम् प्रसीद करुणापूर्ण शोणाचल महेश्वर प्रायस्वभवभीतम् माम् प्रपन्नम् भक्तवत्सला द्रष्टव्यम् द्रष्टमेतत्ते रूपमत्यद्भुतम् महत् कृतार्थय कृपा सिन्धो शरण्यशरणागतम् इति संस्तूयमानो मे देवः शोणाचलेश्वरः अदर्शयत्परम् रूपम् दिव्यमेहीत्युवाच माम् प्रीतोऽस्मि भवतः स्तोत्रैः भक्त्या च परया भृशम् तैव भवतो वासो यमस्तु ममान्तिके सम्पूजय च माम् नित्यम् भुवि भोगैः सनातनैः पसातप सर्वेषाम् महत्त्वमिह दर्शया पूर्वम् कैलासशिखरे वसन्तम् त्वाम् तपोन्वितम् आदिशम् पृथिवीभागे शोणाद्रौ पूजयेति माम् सप्तर्षि पूजिता पूजा दिवि मे सम्प्रकाशते। नित्यार्चनायुक्तः प्रकाशय धरातले सर्वेषामेव जन्तूनाम् हितायत्वं तपोधिकः भुवि माम् पूजयार्चाभिः आगमोक्ताभिरादरात् दिव्या मम महापूजा दृश्या हि दिवि देवतैः प्रकाशनीया भवता प्रार्थिवी वसुधातले माहात्म्यम् पूर्वमेवोक्तम् यथाहमरुणाचलः यो वसुन्धरा भागे या प्रीतम् तु ते भृशम् एवा सम्पूजयन्ति स्म पूर्वम् माम् सुकृताधिकाः एभ्यस्वमधिको भूमौ प्रकाशस्व शिवार्चनम् इत्यादिष्टो हि देवेशम् प्रणम्य भवभक्तिमान् अन्वपृच्छम् दयापूर्णम् अरुणाद्रीशमानमन् अनासाद्यमिदम् रूपम् अग्निरूपम् महेश्वरम् कथमभ्यर्चयाम्येयम् मर्त्यलोकोचितार्चनैः आदेशमिममन्वर्थम् कथम् वा कल्पयाम्यहम् उपायमादिश श्रीमन्नभिगम्यो यथा भवान् इति विज्ञापितो देवः श्रीमाञ्छोणाचलेश्वरः वग्रहीदशेषात्मा प्रणतम् माम् दयानिधिः अहम् तु सूक्ष्मलिङ्गानि प्रकाशिष्ये महीतले आगमोक्तक्रियाभेदैः पूजाम् मे प्रतिपादया पञ्चावरणसंयुक्तम् लिङ्गम् मे सूक्ष्ममद्भुतम् अरुणाद्रीश्वराभिक्यम् सम्पूजय तपोबलैः इत्यादिश्य महादेवः यम्भुविमलम् महत् रूपम् मे दर्शयामास सूक्ष्मलिङ्गात्मना शिवः आलोक्य विमलम् लिङ्गम् सूक्ष्मम् तत्स्वयमुच्छ्रितम् अशेषावरुणोपेतम् कृतार्थहृदयोभवम् पुनर्व्यज्ञापयम् देवम् शम्भुमाश्रितवत्सलम् आगमोक्तप्रकाराणाम् अनिरीक्ष्यत्वमागतम् कथम् तु तव रूपाणाम् नामभेदान् वियोजितान् जानीयाम् करुणामूर्ते स्वयमीश्वरमत्प्रभो पूजकास्तव के वा स्युः मन्दिरम् वात्र कीदृशम् कथम् स्तोत्रम् कथम् पूजा के वात्र परिचारकाः स्थानरक्षा कथम् वा स्यात् केवात्मपरिरक्षकाः कथम् वा मानुषी पूजा नित्या संवर्धते तव आगता बहवो देवा श्रद्धेयम् मनुजैः कथम् प्रसीद परमेशान स्वयमाज्ञापयाखिलम् एवम् विज्ञापितो देवः शोणाद्रीश स्वयम् प्रभुः आज्ञापयत्तदा देवो विश्वकर्माणमागतम् सृजत्वम् नगरम् दिव्यम् अरुणाख्यम् गुणाधिकम् मन्दिरम् मम दिव्यम् च महामणिगणोज्ज्वलम् तौर्यत्रिकम् सपर्याङ्गम् तन्मे सर्वम् प्रकल्पय आबभाषे शिव श्रीमान् नामभेदार्चनक्रमम् व्रतम् च करुणामूर्तिः अरुणाद्रीश्वरः शिवः कृणु तन्मे च ये सृष्टा पूजार्थम् परिचारकाः शृणु गौतमः सर्वम् मे मनुषम् पूजनक्रमम् जयेश सर्वलोकानाम् क्षेमाय प्रार्थते भुवि इदम् तेजोमयम् लिङ्गम् अतुलम् दृश्यते महत् अरुणाद्रीश्वराभिक्यम् पूज्यताम् सततम् त्वया शक्तिर्ममोत्तरे भागे पूज्या नित्योदयामुदा दधती स्थानमाहात्म्यम् अपीतकुचनामिका अरुणाचलराजोऽयम् అవిభాగ ప్రియాన్విత సవార్థో మహాదేవ పూజ్యో భోగసుతావృత బోధదో భక్తలోకస్య దత్తాభయకర శివ తారంగం పరశుం బిభ్రత్ ప్రసన్నవదన సదా ఉమాస్కందేశ్వర శంభు దివ్యరత్న విభూషణ అభయాభాసయన్ లోకాన్ అవికుంఠశ్రియాన్విత శక్తేరుత్సవ భద్రే చ సంపూజ్యా సుందరేశ్వరీ సర్వభూషణ సంయుక్త శృంగారరసవర్ధినీ బాలో గణపతి పూజ్య తస్తాద్భూతినందన వదంతి కమలం కుర్వన్ భక్ష్యైర్భోజ్యైర్బహూదయైః మత్పార్శ్వమభిముంచంతి శోణరేఖాంచితే క్షణా తవార్థాపరాశక్తిః అంతికాస్థైవ పూజ్యతాం ముఖరాంఘ్రిపతి శ్రీమాన్ నృత్యం స్తాండవ పండితః సవార్థం సమభ్యర్చ చక్షురగ్రే మృతేశ్వరః శక్తిశ్చాన్యా మహాభాగా సంపూజ్యా భువినాయకా ద్వారే నందీ మహాకాలః పురస్తాత్ సూర్య సన్నిభః భక్తానాం మమ సర్వేషాం పూజనం చాపి కల్ప్యతాం దక్షిణే మాతరః పూజ్య విఘ్నశాస్త్ర సమన్వితాః సంపూజ్యో నైరుతే కోణే విఘ్ననాశో వినాయకాః అందశక్తిధరశ్చైవే శానకోణే సమర్చ్యతాం లింగాని చ మనోజ్ఞాని పూజనీయాన్యమంతరం మందిరం మమ సంపూజ్య దక్షిణామూర్తి దక్షిణం పశ్చిమే విష్ణురూపాంకం అగ్నిరూపాన్వితం తథా ఉత్తరే బ్రహ్మరూపాంకం పూర్వోసారంగభూయుతం సర్వదేవగుణోపేతం సర్వశక్తి సమన్వితం పీతకుచనాథాయాః సర్వశక్తి సమన్వితం మందిరం గురు సంపూజ్య దిక్పాలకవధూవృతం మందిరస్యావనార్థాయ దేవీ వైభవనాయకాః క్షేత్రపాలం తు సంపూజ్య సర్వావరణ సంయుతం త్రస్య త్రాణమాయాత పూజ్యారుణగిరీశ్వరీ కాళీ బహువిధాశ్చాన్యా దేవతావిధిపాలకాః ఉత్సవా వివిధా కల్ప్యాః ప్రతిమాసమహోదయాః యస్య కన్యకా దివ్యాః శివదేవార్హణోరతాః నృత్తగీతకలాభిజ్ఞా రూపసౌభాగ్య సంయుతాః చారు విభ్రమ సంయుక్తాః కామదానిత్య పావనాః శ్యామాదిశవేదజ్ఞాన్ సదాచార సముజ్వలాన్ దివ్యోపచార సంసిద్ధ్యై సుభగాన్ శుద్ధచేతసః దీక్షితాన్ విమలాన్ శుద్ధాన్ శైవాగమ విశారదాం శైవాచార ప్రసిద్ధ్యర్థం ఆదిశాభ్యర్చనే మమ మార్దలాంఛాఖిలాన్ వైణాం స్థాళికాన్ వేణువాదకాన్ పౌల్బికాన్ సృజసద్విద్యాన్ దుర్విద్యా విశారదాన్ క్షత్రియాన్ వివిధాన్ వైశ్యాన్ శూద్రాంశ్చ శివ సమ్మతాన్ చత్వారశ్చ మఠాః కల్ప్యా చతుర్దిక్తీర్థవాసినాం మునీనాం శివభక్తానాం నిరాశానాం నివాసతః ఏషు స్థితా మునీంద్రామే రక్షంతు శివ పూజనం భిక్షమాణా పునశ్శైవ భక్తా పాశుపతా అపి పాలయంతు సదాన్యే చ యుక్తా కాపాలికా అపి సర్వేషాం జాయమానానాం జాతానాం సంభవిష్యతాం అవ్యాహతాగ్న్యమారక్ష్యం ఇదం స్థానం మహీభృతాం బకులశ్చ మహానత్ర దృశ్యతే దివ్యభూరుహః అత్ర భక్తా వితన్వంతు శివకార్య వినిశ్చయం అత్ర మేదీయతే ద్రవ్యం అప్రేక్షిత పరాప్తయే యత్తదక్షయ్య ఫలదం ఆరక్ష్యం శివ సేవకైః భక్తైర్ విజ్ఞాపితం చార్థం శోష్యామి పురతస్థితైః సర్వం సంపాదయిష్యామి తేషాం చిత్తానుకూలకం అపరాధ సహస్రాణి క్షంస్యే మాం స్వర్చతామహం ఆగమోక్తా చ పూజేయం మానుషీ నిర్మితాయతః గృహీష్యేతామహం సర్వాం అర్చాం సర్వాగమోదితాం సంకల్పితం భవేత్ కర్మ ప్రీతికృన్మమ సేవకైః ఆగమార్థానశేషాంస్త్వం ఆలోక్య సమయోచితాన్ విధాయాభ్యర్చనాభేదాన్ లోకరక్షాకృతే మునే కర్తవ్యా మహతీ పూజా పౌర్ణమాస్యాంతు సాదరం త్రాణి వివిధాన్యత్ర కర్తవ్యాని సహస్రశః వివిధాని చ దానాని శక్త్యా చైవాస్య సన్నిధౌ అవ్యుచ్ఛిన్న ప్రదీపస్య దాతారో మమ సన్నిధౌ తేజోమయమిదం రూపం మమయాంతి న సంశయః జలజంతరుజం పుష్పం తక్షజం చలతోద్భవం దదతే యే చ భక్త్యా మే తే భవిష్యంతి భూభృతః తేషాం పురోగతః సాక్షాత్ అహం జేష్యామి విద్విషః యస్య యస్య తు దేశస్య యో యో రాజా తపోధికః తత్తత్ సమర్థితం రమ్యం సంభవం దదతేత్ర మే మత్సన్నిధిముపాగమ్య దురాత్మానోపి భూమిపాః శివ భక్తా భృశం పూర్ణా భవిష్యంతి న సంశయః ఇతి శంభుముఖోత్థితం వచః సముపశ్రుత్య విధృతకల్మషః అమానతవాన్ వ్యజిజ్ఞపం కుతుకా శోణగిరీశ్వరం శివం ఇతి అష్టమోధ్యాయః.